इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आर्थिक विषयिकया मन्त्रिपरिषद समित्या अस्मै विपणन सत्राय चतुर्दश ग्रैष्मिक सस्यानां एमएसपी इति न्यूनतम समर्थन मूल्यानि वर्धयितुम् अनुमोदितम्। नवदेहल्यां केन्द्रीय मन्त्रिसभा सभायाः अनन्तरं प्रसार माध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् अनेन निर्णयेन उत्पादकेभ्यः तेषाम् उत्पादानां कृते लाभप्रदं मूल्यं सुनिश्चितं भविष्यतीति।
खरीफ के लिए जो फैसला लिया गया उसमें जितने भी खरीफ के क्रॉप्स हैं उन सब में कॉस्ट प्लस 50% या 50 से अधिक टोटल 2,60,000 करोड़ रुपए किसानों को पे आउट जाएगा इस पूरे फैसले से। और इस साल का एनुअल खरीफ प्रोक्योरमेंट होगा 824 लाख मेट्रिक टन LMT।
अस्य सत्रस्य विपणन कालाय ग्रैष्मिक सस्यानां न्यूनतम समर्थन मूल्यानां वृद्धिं स्वीकृत्य नवदेहल्यां केन्द्रीय मन्त्रिसभायाः निर्णयः देशे कोटिशः खाद्य प्रदायकेभ्यः स्वोत्पादानां उचितं लाभप्रदं च मूल्यं प्राप्नुयात् इति सुनिश्चितं करिष्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। प्रधानमन्त्री नरेन्द्रमोदी श्वस्तनादारभ्य अस्य मासस्य 20 दिनांकपर्यन्तं UAE, नेदरलैंड, स्वीडन, नॉर्वे, इटली इत्येतेषां देशानां यात्रायां भविष्यति। विदेशमन्त्रालयस्य सचिवः CB जॉर्जः सूचितवान् यत् पञ्चराष्ट्राणां भ्रमणस्य प्रथमपादे श्रीमोदी UAE अध्यक्षं शेख मोहम्मद बिन जायद अल नह्यान इत्यनेन सह मिलिष्यति। सः अवदत् यत् उभावपि नेतारौ द्विपाक्षिक विषयेषु विशेषतः ऊर्जा सहकारे परस्पर हितस्य क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च विचार विनिमयं करिष्यतः। अद्य नवदेहल्यां ब्रिक्स विदेश मन्त्रिमण्डलस्य द्विवार्षिकं सम्मेलनम् आरभ्यते। सम्मेलनस्य अध्यक्षः विदेशमन्त्री एस जयशंकरः भविष्यति। ब्रिक्स देशानां विदेशमन्त्रिणः सदस्यराष्ट्राणां प्रतिनिधिदल प्रमुखाश्च अस्यां सभायां भागं ग्रहीष्यन्ति। केन्द्रीय अन्वेषण विभागः NEET UG 2026 इति परीक्षायाः विषये अभिकथित अनियमिततायाः प्रश्नपत्रस्य अनियमिततया प्रकाशनेति विषये च पञ्च अभियुक्तान् गृहीतवान्। प्रकरणस्य पञ्च अभियुक्ताः जयपुरतः त्रयः, एकैकौ गुरुग्राम नाशिकतः, अन्ये अनेके च शङ्किताः सम्प्रति परीक्षमाणाः सन्ति। असम सर्वकारः अस्य मासस्य 26 दिनांके राज्य विधानसभायां यूनिफॉर्म सिविल कोड UGCC इति समान नागरिक संहिता विधेयकं प्रवर्तयिष्यति। मुख्यमंत्री हिमंत बिश्व शर्मा इत्येषः मुख्यमंत्री रूपेण द्वितीय कार्यकालस्य प्रथम मन्त्रिसभायाः अध्यक्षतां कृत्वा प्रसार माध्यमान् सम्बोधयन् घोषणैः अकरोत्। सर्वकारेण केन्द्रीय अन्वेषण विभागस्य CBI इत्यस्य निर्देशकाय प्रवीण सूद इत्यस्मै एकवर्षस्य विस्तारः दत्तः। उत्तरप्रदेशे धूलि प्रभञ्जनेन सह विद्युत प्रभञ्जनेन वृष्ट्या च गत 24 होरासु 43 जनाः मृताः। भदोही मण्डले सर्वाधिकाः 15 जनाः मृताः इति सूचनास्ति। पश्चिमबंग सर्वकारेण आलुकं, पलाण्डुः, फल, शाकानि, तैलबीजादिभिः सह अन्य धान्यानि आवश्यकोत्पादेभ्यश्च अन्ताराज्यस्तरेषु आवागमनाय सर्वे प्रतिबन्धाः उपाहरिताः। अन्ते प्रियाः श्रोतारः क्रीडावार्तायाम्। IPL इति क्रिकेट क्रीडायां गतरात्रौ रायपुरे रॉयल चैलेंजर्स बेंगलुरु दलेन कोलकाता नाइट राइडर्स इति दलं 6 पराजितम्। अद्य सायं 7:30 धर्मशालायां पंजाब किंग्स मुंबई इंडियंस इत्येते दले पुनः क्रीडिष्यतः इति वार्ताः।